ಸರ್ವೇಭ್ಯ ನಮಸ್ಕಾರಃ. ಸದ್ಯ ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯಃ ಹಲಂತ ಸ್ತ್ರೀಲಿಂಗ ಪ್ರಕರಣೆ ತೃತೀಯ ಪಾಠಃ. ಆಗಸ್ಟ್ ಮಾಸಸ್ಯ ಸಪ್ತವಿಂಶಃ ದಿನಾಂಕಃ. ಏನಾಕ್ಷರ ಸಮಾಮ್ನಾಯಂ ಅಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ವಾಕ್ಯಕಾರಂ ವರಋಷಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ. ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತಿ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ ವಿರಚ್ಯತೆ. ಪಕಾರಾಂತಃ ಸ್ತ್ರೀಲಿಂಗಃ ಗೀತಃ. ಅಪ್ ಶಬ್ದಃ ನಿತ್ಯಂ ಬಹುವಚನಾಂತಃ. ಆಪಃ ಇತಿ ಪ್ರಥಮ ಬಹುವಚನೆ ರೂಪಂ. ಅಪ್ತೃಂತ್ರಿಚಿತ್ಯಾದಿನ ಉಪಧಾದೀರ್ಘಃ ತತಃ ಅಪಃ ತತಃ ಅಪೋಭಿ ಇತಿ ಸೂತ್ರೇಣ ತಕಾರಃ ಆದೇಶಃ. ಅದ್ಭಿಃ ಅದ್ಭ್ಯಃ ಅದ್ಭ್ಯಃ ಅಪಾಂ ಅಪ್ಸು ಇತಿ ರೂಪಾಣಿ. ಅಗ್ರೆ ಮಹೇಶ್ವರ ಸೂತ್ರಾಣಾಂ ವರ್ಣಕ್ರಮಾನುಸಾರಂ ಶಕಾರಾಂತಃ ಸ್ತ್ರೀಲಿಂಗಃ ಪ್ರದರ್ಶ್ಯಂತೆ. ಸ್ತ್ರೀಲಿಂಗಾನಾಂ ರೂಪಾಣಿ ಪ್ರದರ್ಶ್ಯಂತೆ ದೀಕ್ಷಿತೈಃ. ತೇಷು ಆದೌ ಶಕಾರಾಂತಃ ಸ್ತ್ರೀಲಿಂಗಃ ದಿಶ್ ಶಬ್ದಃ. ದಿಶಾ ಇತ್ಯರ್ಥೆ ಆಕಾರಾಂತಃ ಅಪಿ ಅಸ್ತಿ ಶಕಾರಾಂತೋಪಿ ಅಸ್ತಿ. ಶಕಾರಾಂತಸ್ಯ ಸ್ತ್ರೀಲಿಂಗಸ್ಯ ಋತ್ವಿಕ್ ಇತ್ಯಾದಿನ ಕ್ವಿನ್ ಪ್ರತ್ಯಯಾಂತಃ. ದಿಶ ಧಾತು ದಿಶ ಉಚ್ಚಾರಣೆ ಧಾತು ತಸ್ಯ ಕ್ವಿನ್ ಪ್ರತ್ಯಯ ಕ್ರಿಯತೆ. ಋತ್ವಿಕ್ ದೃಧೃಕ್ ಸರಗ್ ದಿಗ್ ದಿಕ್ ಇತ್ಯತ್ರ ದಿಶ ಇತಿ ನಿಪಾತನಂ ಅಸ್ತಿ. ಅತ್ರ ಇದಾನೀಂ ಕ್ವಿನ್ ಪ್ರತ್ಯಯಾಂತಸ್ಯ ಸುಪ್ರತ್ಯಯ ಕ್ರಿಯತೆ. ಸುಪ್ರತ್ಯಯಸ್ಯ ಹಲ್ಜ್ಞಾನಿನ ಲೋಪಃ. ಕಿಂ ಕರಣೀಯಂ ಇತಿ ಪ್ರಶ್ನೆ ಕೃತಸ್ಯ ಸಿದ್ಧತ್ವಾತ್ ವಶ್ಚಯ ದಿನಾಶತ್ವಂ ತಸ್ಯ ಜಸ್ಮೇನ ಡಹ ಕುತ್ವೇನ ಡಹ. We have been discussing this in the last class. Okay, let us come to the form according to Dikshita is you have Dishit, Su, Kalgyanina, Supratya, Silopaha, you have Dishit, Rashtya, Bhradya, Sajamrida, Garaja, Bhradya, Chasham, Shakarantana, Padante, Jali Padante, Shakaraha, Muddhanya Shakaraha, Adeshaha, Ittyanena, Adeshe, Dishu, Atibhavati, ಸಲಾಂ ಜಶವಂತೆ ಇತ್ಯನೇನ ಷಕಾರಸ್ಯ ಜಸ್ತ್ವೆ ಲಕಾರಃ ದಿಡ್ ಇತಿ ಭವತಿ. ತಸ್ಯ ಕ್ವಿನ್ ಪ್ರತ್ಯಯಸ್ಯ ಕುಹ್ ಇತ್ಯನೇನ ಕುತ್ವೇ ಕೃತೆ ಗಕಾರಃ ಡಕಾರಸ್ಯ ಸ್ಥಾನೆ ಗಕಾರಃ ಆದೇಶಃ ದಿಗ್ ಇತಿ ಜಾತಂ. ವಾವಸಾನೆ ಇತ್ಯನೇನ ವೈಕಲ್ಪಿಕೆ ಚತ್ವೆ ದಿಗ್ ದಿಗ್ ಇತಿ ರೂಪಾಣಿ ದಿಶೌ ದಿಶಃ ಪ್ರದರ್ಶ್ಯತೆ. ಅತ್ರ ವಸ್ತುತಃ ಪಕ್ಷದ್ವಯಂ ಅಸ್ತಿ. ದೇರ್ ಆರ್ ಟೂ conflicting opinions here. Kayatasya mate kvilvratyasya kuhu iti sutram kodhaha iti dhattasya api apavadaha tathaiva vrashtabhrasya ityadinam api apavadaha tanmate vrashtabhrasya dishatvam na bhavati. Sakshat kvilvratyasya kuhu ityanena kutve rupam siddhyati. So according to Kayata, since Kvin Pratyasya Kuhu is an apavada to Vastabhrasya, it will overrule Vastabhrasya and we directly do Kutva. But according to Dikshita, Kvin Pratyasya Kuhu is not an apavada. He says it is neither an apavada to Vastabhrasya nor an apavada to Kodha. So if there is a possibility of applying Vastabhrasya, since Kvin Pratyasya Kuhu lies later in the Tripari, Sintratyasya Kuhu is 8 to 62, whereas Vastabhrasya is 36. So Asiddhatvat, since Kvintratyasya Kuhu is Asiddha, we first apply Vastabhrasya and then we do Jastva, and after that we convert the Dakara to gakara. He also gives the same prakriya in drish, tadrish shabda in pulinga also. So, dikshitanam mate apavadatam nasti yataha adau shattam tataha shadagakaha iti tatrafitat. So, dik dishav dishaha is how the prakriya is according to dikshitar. So, the question is what happens in sraji? Because sraji also has comes under Vrashta Bhadda Sridha. Sridha Bhato Rabi Vrashta Adi Sutre Leha Asti Yataha Patrapi Vrashtaha Bhavet. So I searched the commentaries, I didn't find any commentary which comments on Sridha. They don't say anything about it. But it seems that logically the same should happen there. Let us, in the Dikshitar system, you should apply Shatva and then do it. That is what it seems as of now. So if I get any other pramana for it from commentary, I'll clarify. Yes, Vasudha. Visarjane vidhatoha. Aham drishtva vadami. I don't remember. I just look at it and let you know. Astu. Rupe bhedaha bhavati va iti prashnaha. Yadi shaktam kriyate rupe bhedastu na bhavati. Srijityata api shakaraha. Vrashtadina sutrena. Murthaneshakaraha eva vidhiyate. Murthaneshakarasya jashchena dakare krute. Dakarasya kutvam nama dakaraha eva. Rupe bhedaha na bhavati. Prakriyayam eva bhedaha. Any other questions? Okay. So we'll move on. Dik dishav dishaha, disham dishav dishaha, disha digvyam digvi. As usual, wherever you have padanta, the same form, shada ga ka. Katvam kakarahana bhavati, shada ga, just from eva, digvyam. Dikshu, supratyaya pare, kharicha itanena sattvam bhavati, adesha pratyaya yoho itanena, sakarasya shakar. Shakarantaha strilingaha drish shabdaha. Ayam shabdaha vasataha kvip pratyantaha. Ityo hai ritvik dadhat srag di gushti ganchu yuji krinchancha. Tetra drish dhatohu parinamam nasti. Ataha atra kvin pratyaha na bhavati. Samanyataha sarvesham dhatunam yatha tatha kattari kvip pratyaha. Kintu atrapi kuttum bhavati iti pratipadyate. Yadarishu drishona lochane kancha iti drishehe kvin vidhanat anyatrapi kuttum. Drishithatu gets kvin pratyaya in a particular case. Yadarishu. Yadarayaha upapadani bhavanti. When drish is preceded by yadari. For example, you have tadrish, where tad shabda is the upapada for drish. So, in such cases, drishadhatu gets kvin and kai, two pratyayas. You have tadrik and tadrishaha. So, in a particular case, or in a specific case, kvin pratyaya has been given for drish.
त्यदादिषु दृशो नालोचने कञ्चित् दृशेः द्विनिधानात् अन्यत्रापि कुत्वम्.
This is the operating point. We have discussed this earlier in the Pullinga Prakarana also.
Kvin pratyayasya kuhu ityaski. Kvin iti pratyaya, kvin pratyaya tasya.
So the, how do you interpret kvin pratyayasya kuhu? The question.
So kvin pratyayasya directly interpreted, it would mean for that word which has kvin pratyaya at the end. Kvin iti pratyaya, kvin pratyaya, karma dharaya. तस्य प्रत्ययग्रहणे तदन्तस्य ग्रहणम् इत्यनेन तदन्तस्य क्विन् प्रत्ययान्तस्य शब्दस्य कुत्वं भवति इति साक्षादर्थः प्रतीयते. किन्तु सूत्रार्थः तथा न दीयते. तत्र बहुव्रीहिः आश्रयते. कर्मधारयसमासं परित्यज्य क्विन् प्रत्ययः यस्मात् सः इति बहुव्रीहिसमासः आश्रीयते. किमर्थम् इत्युक्ते यस्मात् धातोः अर्थात् इदानीं वृषधातोः क्विन् प्रत्ययः विहितः. यद्यपि अस्मिन् शब्दे अर्थात् साक्षात् दृश् इति क्विच् प्रत्ययान्ते क्विन् प्रत्ययविधानं नास्ति, तथापि अन्यत्र क्विन् प्रत्ययः विहितः इति कृत्वा अत्रापि दृषधातोः कुत्वं क्रियते. सिन्स् दृश् हेस् द योग्यता फार् गेटिङ्ग् क्विन् प्रत्यय समवेर् इन् सम् पर्टिक्युलर् केस् क्विन् प्रत्यय हेस् बीन् गिवन्. सो क्विन् प्रत्ययः यस्मात् क्विन् प्रत्ययः विहितः अस्मिन् शब्दे न भवतु, कुत्रचित् क्विन् प्रत्ययः भवति तादृशस्यापि क्विन् प्रत्ययस्य कुः इत्यनेन कुत्वं भवति इति सिद्धान्तः. अत एव इदानीं यद्यपि दुःशब्दः क्विप् प्रत्ययान्तः, तथापि अन्यत्र क्विन् प्रत्ययः विहितः, तद्बलेन अत्रापि क्विन् प्रत्ययस्य कुः इत्यनेन कुत्वं क्रियते. अतः दृग् दृग् इत्यस्य अत्रापि वृष्टभ्रज इत्यादिना षत्वं जनां दिशुवन्ते इति डकारः, ततः क्विन् प्रत्ययस्य कुः इत्यनेन कृत्वे दृक् दृग् दृशौ दृशः इत्यादीनि रूपाणि दृग्भ्यां दृक्षु. इस् दट् क्लियर्? शकारान्ताः मूर्धन्यशकारान्ताः स्त्रीलिङ्गाः, शकारान्तस्त्रीलिङ्गः त्विष् शब्दः, एवमपि त्विष् प्रत्ययान्तः शब्दः. सुप्रत्ययः अल्ज्ञानिना सुप्रत्ययस्य लोपः जलां दृश्यन्ते इत्यनेन षकारस्य जस्ते त्विड् वावसाने इत्यनेन वैकल्पिके सत्त्वे त्विट् त्विट् त्विड् त्विषौ त्विषः विशेषः प्रक्रियायां किमपि नास्ति. त्विड्भ्यां त्विट्सु त्विट्सु इति रूपद्वयं सप्तमी बहुवचने. कथं रूपद्वयं, किं कार्यं जातम् अत्र? त्विट्सु त्विट्सु रिमेम्बर् कार्य या करेक्ट. सो डस्सि धुट् इत्यनेन सकारे परे डकारस्य त्विड् सु इत्यस्यां दशायां डस्सि धुट् इत्यनेन वैकल्पिकः धुट् इति आगमः क्रियते. तस्य चत्वे कृते त्विट्सु इति एकं रूपं, दुडागमाभावे त्विट्सु इति अपरं रूपम्. ततः सकारान्तः स्त्रीलिङ्गः सजुष् शब्दः
occurs in the sutra which we have all used innumerable times. Sajusho Ruhu. So the Sajush of Sajusho Ruhu occurs here. Saha Jushate, it is Sajuhu. It means a friend, he generally, he who delights a companion, Jathe Sajush Shabda. जुषी प्रीति सेवनीयः इति धातोः कृत् प्रत्ययः क्रियते सजुष् शब्दात् सुप्रत्ययः सुप्रत्ययस्य लोपः सजुषोरुः इत्यनेन षकारस्य कृत्वं सजुर् इति भवति ओरुकथाया दीर्घैकः रेफवान्तस्य धातोः वधायाः दीर्घः स्यात् चलिपदान्ते उच्यते अत्र धातुः जुष् इति धातुः तस्यैव धातोः षकारस्य स्थाने रेफादेशः कृतः अतः इदानीं वयं धातुः एव रेफान्तः धातुः तस्य उपधायाः इकः उपधायाम् उकारः अस्ति इग्वर्णः तस्य दीर्घः क्रियते सजूर् भवति सर्वसानयोर् विसर्जनीयः इत्यनेन रेफस्य विसर्गे कृते सजूः इति रूपम् सजूः सजुषौ सजुषः सजुषं सजुषौ सजुषः सजुषा सजूर्भ्याम् एवमेव सजुषोरुः इत्यनेन ऋत्वं पदान्तत्वमस्ति इत्यतः ऋत्वं क्रियते सजूर्भ्याम् विसर्गं कर्तुं निमित्तं नास्ति अतः रेफः एव श्रूयते सजूर्भ्याम् सजूर्भिः सजुषे सजूर्भ्याम् सजूर्भ्यः सजुषः सजूर्भ्याम् सजूर्भ्यः सजुषः सजुषोः सजुषाम् सजुषि सजुषोः ततः किं रूपं का प्रक्रिया केन निवडि Yes. Yes, right, Anandji. आदौ सुसजुषोरुः इत्यनेन ऋत्वं भवति सजुर् सु पूर्वकथायाः दीर्घैकः इत्यनेन लीथः सजूर् सु रोः सुति इति नियमः पठितः चतुर्षु इत्यत्र विसर्गः न भवति किमर्थं न भवति सुपि परे यदि विसर्गः रेफस्य विसर्गः तर्हि रोरेव इति नियमः अत्र तु रुः अस्ति ऋत्वमेव सजुषोरुः इत्यनेन ऋत्वं कृतम् अतः खरसानयो विसर्जनीयः इत्यनेन विसर्गः भवति सजूः सु इत्यस्ति इदानीं वाशरि इत्यनेन विसर्गस्य विसर्गादेशः विसर्ग रिमेन्स् एस् विसर्ग शरिपरे विसर्जनीयस्य विसर्जनीयः एव विकल्पेन भवति इति पक्षे सजूः सु इत्येव अस्ति षत्वं करणीयम् नुम् विसर्जनीय शव्यवायेऽपि आदेशप्रत्यययोः इत्यस्य अग्रिमं सूत्रम् तत्र किमुच्यते लिङ्गवर्गाभ्यां परः परस्य आदेशः प्रत्ययावयवश्च यः ककारः तस्य षत्वम् इति उच्यते अत्र इणः वा ककारात् कवर्गाद्वा परकत्वं नास्ति विसर्गः अस्ति अतः नुम् विसर्जनीय शव्यवायेऽपि नुमा विसर्गेण शरा वा व्यवधाने अपि इणकवर्गाभ्यां परस्य सकारस्य सत्वं भवति सो इवन् वन् सेपरेटेड् वेन् द निमित्ता विच् इस् here ukara is an in letter and the kari is sakara. So even when they are separated by nu, visarga or shar, here the vyavaya or vyavadhana is by visarga. So even then the sakara is converted to shakara. So you have sajuhu shu as one form. In other case, vashari is optional. So tasya prarutya bhave kim bhavati visarjaniyasya saha ityanena sakara bhavati sajus su ityasti. आदेश प्रत्ययोः इत्यनेन षत्वं भवति. आदेश प्रत्ययोः इत्यनेन कस्य षत्वं But I'm wondering why this sakara should not be converted to shakara first. This is also an adesha, right? Adesha ha pratyayavayava. It can either be an adesha or a pratyayavayava. Here it is an adesha. The sakara, which is of this, is an adesha. By visarjaniyasya saha. I mean, that is how, I mean, I actually thought about this point when I was writing, making the notes. Then I, reason this is also an adesha, so I can do this, but I am not sure now. I mean, this is a question I am thinking aloud. Why can we not convert this shakara? Because tunashtama operates either way. Whether the nimitta is before or after. So what is wrong in this way is what I'm thinking. I know it. The actual prakriya is doing the other way. The we use num visarjaniyasya vyavaya, but why can we not do it this way? Okay. Think about this. So I will also think. The point is, there are two ways of getting to the sajushu. The final form has two sakaras. You have this followed by ouch. Oh, sorry. Tunashtuhu. So you have two double shakaras. So should we first convert the pratyaya sakara to shakara and then convert this sakara to shakara vaishtutva? Or can we convert the Adesha Sakara Tishakara first and then converted by Shtukva. I have done it the other way. The commentary I'm sure gives it that way. You can right. I am doing Adesha Pratyayohu, but I am applying the Adesha Pratyayohu on the first Sakara instead of the second Sakara. The second sakara is a pratyayavayava. The first sakara is an adesha. So it is directly followed, preceded by ik. Inaparatva, sorry, invarna. It has the nimitta. In kavargabhyam parasya, adesha sakarasya shatvam bhavati iti. Himartham nakaraniyam iti mavapasha. Why can we not do it that way? It is directly preceded by the nimitta. Currently, I can. It is visible. So. Okay. Krishna Mahadeva. हेलो या इट इज नॉट जस्ट अ I have to look into comments anyway. Does Bhavana Nama say anything about this? So, Chandra, do you have a copy on her? So, we have to think. This is where we don't have the help. This looks like, currently I can't find any objections to this. For the other case, see, if we are doing the other way, if we are doing the if we have to do the convert the pratyaya shakara, we again have to use num visarjaniya sharvyavayepi, which is the latter sutra in the Tripadi. I feel, as of now it looks as if adesha pratyayoho will still operate, whether or not that is operating. So, and should we do shtunashtuku then? Because this is still shar. We'll still do adesha pratyayoho again and convert the pratyaya shakara. There is something here which I think I am missing, because it clearly says Shtunashtuku. Shtunashtuku has to happen, but it looks as if you have, if you do Adesha Pratyayohu on the first Sakara, and then the second one can still be converted by Num Visarjaniya Sharvyavayepi. It does not require Shtutva. It's like something we are missing here. I'll think about this and get back. So, new one. Shakarantaha, Srilingaha, Ashishu, Shabdaha. Anga Shasu Chayam. The Shas Dhatu, when preceded by Ang Upasarga, it gives the meaning of Icha. So, okay, the plain Shas Dhatu, Shasti, to rule. So, tasmat trip pratyaha kriyate. A shas dhatuhu trip pratyasya akaraha. A shasaha ko upasankhyanam iti vaktikena. Akarasya sthane ikaradesha kriyate. A shis vu iti asti. Shatirasi kisinam cha iti sutrena. Shattvam bhavati sakarasya. Shattvam. So, a shish लोपे आशिषु प्रातिपदिक प्रत्यापदिक आशिषु तस्प्रत्यय हल्क्यादिना सुलोप आशिषु षत्वस्य असिद्धत्वात् ऋत्वम् उच्यते. To go back and see the prakriya, to have shatva, the sakara has been converted to shatva by shasirasika sinamcha, which is 8360, whereas the rutva, which is satajusho ruhu, is 8266, dhitiya pade asti. So shatvasya asiddhatva, satajusho ruhu iti sutram prati, shatvam asiddham, tadrishtyatra sakara hasti, sakarantatva ta rutvam bhavati, ashir iti. ऋत्वं सर्वोरुपधाय दीर्घैकः धातुः शास् धातुः इदानीं रेफान्तः तस्मात् उपधायाः इकः दीर्घः आशीर् विसर्गः आशीः प्रथमा एकवचने आशीः इति रूपम् आशिषौ आशिषः आशिषम् आशिषौ आशिषः आशिषा आशीर्भ्याम् आशीर्भिः यत्र यत्र पदान्तत्वं तत्र ऋत्वं भवति दीर्घः उपधादीर्घः भवति.
पुनः अन्ते ऋत्वम् इत्यतः रूपं पूर्ववत् भवति. सकारान्तः स्त्रीलिङ्गः अदस् क्ष. सप्तमी बहुवचने समानं भवति. जस्ट् लैक् वी डिस्कस् फार् सदृश् आशीष् शुड् बी द सेम्. सो देर् आर् टु फार्म्स्. सो द प्रक्रिया इस् अ बिट् कन्फ्यूसिङ्ग् फार् नौ. द रूपं तु तथैव भवति. आशीषु आशीषु इति रूपद्वये. सकारान्ताः समाप्ताः. इदानीं सकारान्तस्त्रीलिङ्गः एक एव शब्दः अस्ति. सकारान्तः स्त्रीलिङ्गः अदस् शब्दः. सर्वनाम पुल्लिङ्गे रूपाणि अधीतानि असौ अमु अमी इत्यादिना. स्त्रीलिङ्गे अदस् सुप्रत्यये रूपं समानं. पुल्लिङ्गे स्त्रीलिङ्गे च समानं रूपं. What is the form? You remember the prakriya of adas from pullinga? Hello. Yes, hello. Right. So, adassa ausulo pashta ettenena. अन्तादेशः औकारः. सकारस्य स्थाने औ अद औ इति भवति. तेनैव सूत्रेण सकारस्य सुप्रत्ययस्य लोपः अपि. सो अद औ इत्यस्ति. वृद्धरेचि इत्यनेन वृद्धौ अदौ इति भवति. तदौ सत्सावनं तयोः इत्यनेन दकारस्य जनादीनां तकारदकारयोः अनन्तयोः तकारदकारयोः सकारः आदेशः इति कृत्वात् असौ इति भवति. पुल्लिङ्गे स्त्रीलिङ्गे च समानं रूपम् असौ सः. जराद्यत्वम् औङ्गशी उत्तमुत्वे उत्तमत्वे अमु लिखितैरेव दत्तम्. अदस् औ इत्यस्ति. जरादीनाम् अह जरादिषु अन्तर्भवति. यद् तद् यद् एतत् इदम् अदस् एक द्वि इति. अतः जरादीनाम् अह सकारस्थाने अकारादेशः क्रियते. अतो गुणे इत्यनेन पररूपे अद औ अस्ति. अजाद्यतष्टा अकारान्तत्वात् अजाद्यतष्टा इत्यनेन स्त्रीलिङ्गे ताप् प्रत्ययः भवति. अद आ This should be out, I think, Mr. Set here. Okay. So, there is a... this is not E. It is not as converted to E. This should still be out. So, you have Ada, E. And then, Akasavane Virgaha. Ada, Au. Tadaha, Aunga Apaha Ityanena, Aunga Hasthane, She Bhavati. So I missed that step somewhere. It should come after this. Ada au iti sthate. Aunga apaha ityanena. Auka au pratyayasya sthane. Shi adeshaha. Now you have ada e. Tataha adgunaha ityanena gune. Ade. Idani adaso se dadudo maha. Asantasya adasaha. Dat u. Dakarat parasya uttam. Ekarasya uttam. तदर्थं प्रमाणसादृश्य दीर्घः उकारः भवति दहमः लकारस्य स्थाने मकारादेशः सो यः अमू इति रूपम् असौ अमू तदः बहुवचने सो फ्रॉम नाउ ऑन इन ऑल विभक्तीज टिल दिस इट इज द सेम यदादीनामः इत्यनेन अर्थं भवति ततः टाप् सवर्णदीर्घः अदा इति रूपं सर्वत्र भवति अदा अस् इति भवति अगत्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घः अदास् इदानीम् उत्तरे कृते अमूस् इति भवति तदुत्तरं विसर्गः अमूः असौ अमू अमूः पुल्लिङ्गे तु असौ अमू अमी तत्र एत्वं भवति यशी इत्यनेन शी एत्वं भवति एतै भोजने इत्यनेन इकारः अपि भवति अत्र तु नास्ति असौ अमू अमूः अमूम् अदा अम् अमिपूर्वः इत्यनेन पूर्वरूपे अदाम् इति भवति मुत्रे कृते अमूम् अमू अमूः शसि समान प्रक्रिया एवमेव भवति किन्तु पूर्वसरणदीर्घः भवति अमूम् अमू अमूः अमुया कथम् अमुया इति भवति प्रक्रिया विल् बि सिमिलर् टु सर्वशब्द स्त्रीलिङ्ग बिकास् इट् इस् आकारान्त यः अदा अस् आकारान्त सो इट् इस् वेरि सिमिलर् टु सर्वा शब्द वित् द एक्स्ट्रा एडिशन् आफ् जस्ट् वन् स्टेप् आफ्टर् यु डू एव्रिथिङ्ग् यु कन्वर्ट् द टु मुत्वा दट् इस् आल् सो यु हाव् आनीतापः इत्यनेन अदे आ इति भवति एत्वं ततः अयादेशः अदया मुत्रे कृते अमुया सो अमुया अमूभ्याम् अमूभिः देर् इस् नो प्रक्रिया यु हाव् अदाभ्याम् मकारः ऊकारः अमूभ्याम् अमूभिः एवमेव अमुष्यै ञे प्रत्ययः अस्ति स्याडागमः सर्वनाम्नः स्याट् सर्वश्च सो अदस्यै अदस्यै इति भवति मुद्रे कृते अमुस्यै ततः षत्वं भवति आदेशप्रत्यययोः इत्यनेन षत्वे अमुष्यै अमूभ्याम् अमूभ्यः अमुष्याः अमूभ्याम् अमूभ्यः अमुष्याः अमुयोः अमूषाम् अदा आम् कृते सुट् आमि सर्वनाम्नः सुट् अदा साम् अमू साम् षत्वे अमूषाम् अमुष्याम् अमुयोः अमूषु इति रूपाणि अदश्शब्दस्य सो दट् एण्ड्स् हलन्त स्त्रीलिङ्ग वेरि शार्ट् प्रकरण वेरि फ्यू न्यू सूत्रस् ऐ थिङ्क् वी चे ओन्ली टु न्यू सूत्रस् वन् वस् नमोधः स्वरूपानः एण्ड् अपोभि फार् अक्षब्द So since they are specifically nitya strilinga words, we did not cover those in pullinga. So others, there is nothing new about halanta strilingas. Okay, halantaha, nakum sakalinga. Ha, yahasau ityapi ekam satramasi, idam shabdasya, iyam iti rupam sahe. Three news. Moving on to halanta napumsakalingaha. Tradav hakarantaha. Hakarantaha napumsakalingaha. Svanaduh shabda. Shobhanaha anadvaha is the word. Anaduh is linga. So do the samasa to make it napumsaka. Shobhanaha anadvaha is the word. Shakatam is the word. Is the shakatasya. उत्तमाः वृषभाः सन्ति इत्यर्थे अथवा कुलस्य यस्य कुलस्य उत्तमाः वृषभाः सन्ति इत्यर्थे भवति स्वनडुः इति शब्दात् सुप्रत्ययः स्वमोर्नपुंसकात् इत्यनेन लुक् सुप्रत्ययस्य लुक् सो आचरणस्य कम् इण्टर्नम् सकलिङ्ग यु शुड् रिमेम्बर् दट् द सु एण्ड् अम् विल् बि डिलीटेड् इन् मोस्ट् आफ् द केसेस् सो यु हाव् सुप्रत्यय विच् इस् डिलीटेड् बै लुक् ततः वसुस्रंसु ध्वंसु अनडुहां दः पदान्ते वसुस्रंसु ध्वंसु अनडुः शब्दस्य दकारः आदेशः क्रियते सो ओवर् रूलिङ्ग् होढः इह दकारादेश इह स्वनडुद् आवसाने इत्यनेन सर्वे स्वनडुत् 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 स्वनडुहि इति द्विवचने नपुंसकाच इत्यनेन औङः स्थाने षि प्रत्ययः क्रियते सो यः स्वनडुः इ स्वनडुहि जस् प्रत्यये चतुर्वर्णगोः इति आम् इति उच्यते सो यः स्वनडुः जस् जषसोः शिः इत्यनेन जसः स्थाने षि क्रियते स्वनडुः इ षि सर्वनामस्थानम् इत्यनेन नपुंसकलिङ्गे षि इत्यस्य सर्वनामस्थानसंज्ञा भवति सो सिन्स् इट् इस् अ सर्वनामस्थान चतुर्वर्णः राम् उदात्तः आम् आगमः अस्ति विहितः अनडुः शब्दस्य सर्वनामस्थाने परे सो यु हाव् आम् आगम अन्त्यागतः परः आम् इति आगमः स्वनडु आह् इ नपुंसकस्य झलसः इत्यनेन झलन्तत्वात् लुम् आगमः अपि क्रियते सो यु हाव् आम् आगम एण्ड् यु हाव् नुम् आगम सो नु कृते स्वनडु आ नु इ कोयणसि इत्यनेन उकार आकारयोः एणादेशे कृते स्वनड्वान् हि षष्ठापदान्तस्य झलि इत्यनेन मकारस्य स्थाने अनुस्वारः स्वः स्वनड्वां हि स्वनडु स्वनडु स्वनडुहि स्वनड्वां हि पुनस्तद्वत् द्वितीया विभक्तौ अपि समानं रूपम् अम् प्रत्ययस्य समोर्णपुंसकादित्यनेन लुक् भवति औ प्रत्ययस्य षि आदेशः जत् शसोः इति उक्त्वा शस् प्रत्ययस्यापि षि भवति ततः समानं रूपम् शेषं पुम्बत् फ्रम् तृतीया विभक्ति द फार्म्स् विल् बि लैक् पुल्लिङ्ग अनडुहा अनडुद्भ्याम् अनडुद्भिः यत्र यत्र पदान्तत्वं तत्र दत्त्वं भवति Any questions? Yes? Yes. Right. It is not in the Angadi. If you are doing it, it's got it for the Samya, but this is not an Angakarya at all. Angakarya is simply an Akarya which is specified for the Anga. Right. Here, Vasustramsudhamsanaduhamdaha, it depends on a pada. It does not depend on anga samya. Whether it is an anga or not, it is if as long as it is a padanta. Pada samya, which is suttingantam padam, is not an anga samya. It does not depend on the anga. It depends on the suvanta or the tinganta. So you have the pada samya does not depend on an anga. It depends on the subanta, supratyaya. So what we need here, samonupumsaka, the pratyaya is lost. For padantatva, we need this to be a pada. Padatvam kada bhavati, supratyaya pratyaya lakshanena anetavya. We need the supratyaya for subantatva. Okay. Now, this supratyaya, for padasamya, it is not an angakarya. I mean, there is nothing about suttingantam padam which requires this to be an anga. So, nalumatangasya, you do something depending on the pratyaya, angasya, angadikara. There is something which I did, something right, I think we will see it in the next class. I don't remember what we did, somewhere in the same Nahumsakalinga Prakarana, we see something which is an angakarya, so it will not operate. We will see this in the next class. I don't right now remember what exactly the example was. But anything which comes between, say for example, you have this, what? Kim Shabda. You need to do Kimah Kaha. Right? Kim Shabda Sithane Ka Iti Adeshaha Bhavati. Kada Bhavati Vibhakta Parataha. Angadhikare Asti. That sutra lies within Angadhikara. Say Pyadadina Maha or Kimah Kaha. So, when you delete the supratyaya, you have kim and su, the supratyaya is deleted. Now you cannot convert the kim to ka, because that is an angakarya. Angasya, kim shabdasya angasya, comes lies within the angadhikara. The ka adesha for kim. So that will not operate after the su has been lost. So the form still in Nabhumsakalinga is still kim, and it has not changed to ka. The karya. Yeah. What does the karya depend on? So this tattva is not an anga karya, whereas there the kakara ka adesha is an anga karya. Any other questions? We'll stop here. Next we'll see the rest tomorrow. ಕೇನಾಕ್ಷರಫಲಾಂಬ್ರಹ್ಮಹೇಶ್ವರ ತತ್ಸ್ಮಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ವಾಣಿನಯೇ ನಮಃ ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದ್ ಪರಿಭಾಂತಿ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ.